एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाली कांग्रेस दलस्य चतुर्दश महाधिवेशनस्य अन्तर्गतम् बागमती प्रदेशस्य सभापतौ इन्द्रबहादुर बानिया विजयी सम्मृतो वर्तते। गतरात्रौ सम्पन्नायाः मतगणनायाः अन्तिम परिणामस्य अनुसारेण बानिया 85,000 मतानि प्राप्य प्रदेश सभापतौ विजयी सम्मृतोऽस्ति। एतदीय प्रतिस्पर्धे जगदीश्वर नरसिंह केसी 27,900 मतानि अलभत। गण्डकी प्रदेशे शुक्रराज शर्मणो नेतृत्वस्य समूह विजयी सम्मृतो वर्तते। द्वितीय प्रदेशे निर्वाचनस्य निर्णयनम् सम्पन्नम् नास्ति। अन्येषाम् सर्वेषाम् जनपदानाम् नामावल्याम् प्रेषितायम् सत्यमपि सर्लाई जनपदस्य नामावल्याः प्रेषणाभावेन तत्रत्यम् अधिवेशनम् द्वैविध्यम् प्राप्तमस्तीति नेपाली कांग्रेस दलस्य केन्द्रीय निर्वाचन समितेः सचिवः जगन्नाथ श्रेष्ठः अज्ञापयत्। अत्रान्तरे प्रथम प्रदेशस्य सभापतौ उद्धव थापा विजयी सम्मृतोऽस्ति। एतस्य प्रतिस्पर्धी गुरूराज घिमिरे मतद्वयेन पराजयम् प्राप्तवान् वर्तते। लुम्बिनी प्रदेशस्य सभापतिपदे अमरसिंह पुन विजयम् लब्धवान्। प्रधानमन्त्री शेरबहादुर देउवा वदति प्रवासिनो नेपालिनः मातृभूमिम् सर्वदृष्टिकोणेन स्नेहन्ति। अमेरिका देशीय जनसम्पर्क समितेः तृतीय महाधिवेशनम् श्रव्य दृश्य प्रविधेर माध्यमेन ह्य उद्घाटयन् प्रधानमन्त्री देउवा प्रवासिनो नेपालिनः मातृभूमिम् अत्यधिकम् स्नेहन्तीति संस्पष्टयत्। राष्ट्रिय प्रजातन्त्र दलस्य नवनिर्वाचितः अध्यक्षः राजेन्द्र प्रसाद लिङ्गदेन दले उत्पन्नायाः परिस्थितेः कारणेन विभिन्नेषु कालखण्डेषु बहिर्भूतान् सम्पूर्णान् नेतृन् कार्यकर्तृञ्च मूलदले प्रत्यावर्तितुम् आह्वयति। नवनिर्वाचितानां पदाधिकारिणां केन्द्रीय सदस्यानाञ्च शपथग्रहण प्रमाणपत्र वितरण समारोहे अध्यक्ष लिङ्गदेन शीर्ष नेतृणां कार्यकर्तृणां च कृते अपमानस्य अवस्था न आयास्यतीति चर्चयन् भविष्यति कार्यस्य आधारेण प्रत्येकं नेतुः कार्यकर्तुश्च मूल्यांकनं भविष्यतीति अवोचत। कार्यक्रमे निवर्तमानोऽध्यक्ष पशुपति शमशेर राणा अवासत निर्वाचनस्य परिणाम सर्वैः स्वीकर्तव्य। अपर निवर्तमानोऽध्यक्ष डाक्टर प्रकाश चन्द्र लोहनी अगदत् राप्रपा दलम् सबलीकर्तुम् सर्वै एकीभूय संलग्नेर भाव्यम्। राष्ट्रपतिः विद्यादेवी भण्डारी भासते समाजे विद्यमानानाम् विकृति विसंगतीनाम् अन्ताय विदौ आवश्यक परिमार्जनम् नीति कार्यक्रमाणाम् प्रभावकारी क्रियान्वयनम् च विधातव्ये। लैंगिक हिंसा विरोधिना 16 दिवसीय अभियानस्य अन्तर्गतम् वनोपभोक्ति महासंघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे राष्ट्रपतिः भण्डारी लैंगिक हिंसायाः अन्ताय नीतेः विदेश च निर्माणाय एतयोः प्रभावकारी क्रियान्वयनाय च सम्बद्ध निकायानां ध्यानम् आकर्षयत्। संसद शिक्षा स्वास्थ्य समित्या नेपाले कोरोना विषाणो ओमिक्रोन नाम्न्याः नूतन प्रजातेः प्रवेशनम् रोद्धुम् भारतेन सम्पृक्तेषु प्रवेशबिन्दुषु गमनागमनस्य नियन्त्रणाय सर्वकारः निर्दिष्टो वर्तते। समितेः ह्य सिंहप्रासादे उपविष्टेन उपवेशेन कोरोना प्रतिरोधिनः टीकाकरणस्य पूर्णमात्रायाः आधानस्य प्रमाणपत्रस्य पीसीआर परीक्षणस्य च आधारेणैव यात्रायाः अनुमतेः प्रदानत्वेन व्यवस्थां विधातुम् निर्दिष्टमस्ति। उपवेशे स्वास्थ्य जनसंख्या मन्त्री विरोध खतिवडा अगदत् कोरोना संक्रमणस्य कारणेन जायमानायाः अतिरिक्त क्षतेः निरोधनम् सर्वकारस्य सर्वोपरि प्राथमिकता अस्ति। एतदर्थं सर्वकारेण यथासम्भवं सर्वाणि स्रोत साधनानि उपायाश्च अवलम्ब्यन्ते। जनता समाजवादी दलस्य अध्यक्ष उपेन्द्र यादवः वदति विभेदस्य असमानतायाश्च समाप्तिम् यावत् देशः समृद्धो भवितुम् न शक्नोति। महोत्तरी जनपदस्य बर्दिवास स्थाने ह्य आयोजितायम् दलित समुदायस्य वर्तमानावस्था समस्या समाधानम् चेति विषयिण्याम् कार्यशालायाम् अध्यक्षो यादवः अवोचत् जातीय भेदभावः असमानता च देश विकासस्य बाधकः सन्तीति हेतोः देशस्य समृद्धे सकल भेदभावः असमानता च समापनीयाः। बाजुरा जनपदस्य बडीमालिका नगरपालिकायाः अष्टवडा क्षेत्रवर्तिनी धुवाकान्तस्थाने ह्य अटोयानम् दुर्घटितम् सत् जनद्वयम् मृतम् वर्तते। मृतकयोः सत्यापनम् अवशिष्टमस्तीति प्रहरी ज्ञापयति। जनपदस्य मुख्यालयात् मार्तडी स्थानात् जडांगा स्थानाय प्रस्थीयमानम् अटोयानम् मार्गात् आसन्न शतद्वय मीटर मिताधो बुढीगंगा नद्याः तटे निपतितम् आसीत्। एवमेव दाङ जनपदस्य देवखुरी स्थाने बसयानस्य प्रहारेण एको जना अम्रियत। घटनायां लमही नगरपालिकायाः सप्तमवडा क्षेत्रवर्तिनो घुश्री स्थानस्य पञ्चपञ्चाशत् वर्षीय रामचरण चौधरी मृत इति प्रहरी ज्ञापयति। प्रेस सेन्टर नेपालस्य चतुर्थमाधिवेशनस्य आन्तरसत्रेण नवनवत्यधिक शत सदस्यीय समिति उद्घुष्टा वर्तते। चितवन जनपदे सम्पन्नस्य राष्ट्रियमाधिवेशनस्य आन्तरसत्रेण अष्टादश सूत्रात्मकं घोषणापत्रं च प्रकाशितं वर्तते। प्रेस सेन्टर नेपालस्य अध्यक्षपदे विष्णु सापकोटा निर्विरोधं निर्वाचितोऽस्ति। नेपाले ह्य चतुर्थ व्याघ्र गणना प्रारब्धा वर्तते। राष्ट्रिय निकुञ्ज वन्यजन्तु संरक्षण विभागस्य महानिर्देशक वेद कुमार ढकाल चितवन बर्दिया पर्सा शुक्ला फाँटा बाँके राष्ट्रिय निकुञ्जेषु निकुञ्जानाम् पार्श्ववर्ती क्षेत्रेषु च व्याघ्रस्य गणना विधीयमाना वर्तते इति अज्ञापयत्। एतत् विक्रम वर्षीयं राष्ट्रिय व्याघ्र सर्वेक्षणम् ह्य चितवन जनपदे उद्घाटयन् वन वातावरण मन्त्री रामसहाय प्रसाद यादव अवदत्। चौर्य कार्यस्य कारणेन व्याघ्रस्य संरक्षणे समाह्वय वर्धितोऽस्ति। आराष्टम् ह्य अतिरिक्तेषु पञ्चाधिक शतद्वय जनेषु कोरोना विषाणोः संक्रमणं पुष्टिभूतमस्ति। ह्य आराष्टम् षट्त्रिंशदधिक चतुःशतं जनाः संक्रमणान् मुक्ताः सन्ति। ह्यस्तनावधि संक्रमणात् मुक्तानां जनानाम् अनुपात प्रतिशतं 10.87 रस्ति। संक्रमणेन ह्य एको जना मृतः। ह्य आराष्ट्रम् 57,933 जना कोरोना विरोधी टीकाकरणम् आहितवन्त इति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। प्रतिवेशी राष्ट्रे भारते कोविड 19 ओमिक्रोन नाम्न्याः नवीन प्रजातेः विषाणोः संक्रान्त नवीन प्रजाते विषाणुना संक्रान्त जनानां प्राप्ते अनन्तरं सीमाक्षेत्र नियन्त्रण केन्द्राणां निर्माणं तीव्रं कारितमस्ति। पूर्वभागस्य प्रवेशबिन्दोः भारतीय क्षेत्रात् नेपालं प्रविवीक्षुन् जनान् लक्ष्यीकृत्य झापा जनपदस्य मेची नगरपालिकायाः चतुर्दशवटा क्षेत्रवर्तिनी हडिया नद्याः तटे नेपाली सेनायाः निरीक्षणे संरक्षणे च निर्मीयमाणस्य नियन्त्रण केन्द्रस्य निर्माणम् अन्तिमचरणे प्राप्तमिति नगर प्रमुख विमल आचार्यः स्रोतो विहीनेन 69,00,000 50,000 रूप्यकाणां वित्तेन सह प्रहरिणा काष्ठमण्डपस्य दरबार मार्गस्थानात् ह्य एको जनः निगृहीतोऽस्ति। महानगरीय प्रहरिणा सूचनायाः आधारेण काष्ठमण्डप महानगरपालिकायाः दरबार मार्गवर्तिनी बीइङ ह्युमन वस्त्रापणे अनुगमनस्य क्रमे एतद् वित्तेन सह हिरोशी खनालः निगृहीतोऽस्ति। निगृहीतः खनाला आवश्यकानुसन्धानाय दण्डनाय च पुलचोकवर्तिनं सम्पत्ति शुद्धिकरण विभागं प्रेषितोऽस्ति इति काष्ठमण्डपवर्तिनो महानगरीय प्रहरी परिसरस्य प्रवक्ता प्रहरी परीक्षक दिनेश राज मैनाली ज्ञापयति।